नमो मित्रस्य वरुणस्य दक्षसे महादेवाय तद्रतं सपर्यतान् दूरे दृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसता सामा सत्योक्त्यः परिपात विश्वतोद्यावाच यत्र तदनन्नहानि च विश्वमन्यन्निविशते यदे यदि विश्वाहापो विश्वाहोदेति सूर्याः न ते अदेवः प्रदिवो निवासते यदे तशेभिः पतरैरधर्यसे प्राचीनमन्यदनुवर्तते रज उदन्येन ज्योतिषायासि सूर्या येन सौर्यज्योतिषापाधसे तमोजगच्च विश्वमधिजर्षि भानुना तेनास्मद्विश्वामनि रामनाहुतिमवामे वामपदुष्वप्न्यम् सुवा विश्वस्य हि प्रेषितो रक्षसौ रथमहेळयन्नुच्चरसि स्वधा अनु यदद्यत्वा सौर्यापब्रवामहैतन्ना देवा अनुमंसे रथक्रतुम् तन्नाद्या वा पृथिवी तन्न आप इन्द्र शृण्वन्त मरुतोहवम् वचाः माशो ने भवसौर्यस्य सन्दृश भद्रम् जेवन्तोजरणामशेमहे विश्वाः त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमेवा अनागसः उद्यन्तम् त्वा मित्रमहो दिवे दिवे ज्योग्जेवाः प्रतिपश्येम सूर्या महिद्यो दर्भ्यभ्रदन्त्वा विचक्षणभास्वन्दम् चक्षुषे मजाः आरोहन्तम् रहतः पाजसस्परि भजम् जीवाः प्रतिपश्येम सूर्या यस्य ते विश्वाभुवनानि केतुना प्रचेरदेन च विशन्ते अग्भिः अनागास्त्वेन हरिकेश सूर्यान्हान्हानो वस्य सा वस्य सोदिः शन्नो अभवचक्षसा शन्नो अह्नाशम् भानुराशम् हिभाशम् घृणेन यथाशमर्धञ्छमसद्दुरोणे तत्सोर्यद्रविणन्धे हि चित्रम् अस्माकम् देवा उभया जन्मने शर्म यच्छ तद्विपदे चतुष्पदे अदत्पिबदोर्जयमानमाशितम् तदस्मे शञ्जोररपो दधातन यद्वो देवाश्च क्रमजिह्वया गुरुमनसो वा प्रजुते देवहेळनम् अरा वाजो नो अभिदुच्छनायते तस्मिन् तदेनो वसवो निधेतना